विंशोऽध्यायः इदं कर्म निष्फलं मा भूत् सपुत्रा नारी नगरम् अनुरतम् अगमात् अमस्मिन् काले अहम् उपवानाम् अवात्सम् असौ नरो युक्ते सक्षत्राम् आचारीत् इमा नरस्सेवनां यथा शक्त्यकार्षुः यं धेनुस्तावदचखादिशद्यदीनया सर्वं सतीर्णम् अखादि अत्यसर्वदिनम् आनगरं देवा अवर्षिषुः रात्रावमूस्तेनौ रज्जधनम् अचूचुरताम् गुरुणा मण्डिरे देवा अपूपुजन्त